रुद्र यह शिव भक्तों का सर्वप्रथम मंत्र माना गया है। शिव संप्रदाय के इस रुद्र पाठ को वैष्णव पंथ के लोगों ने भी अपनाया है। कर्म मार्ग तथा ज्ञान मार्ग दोनों ही में यह मंत्र उपयुक्त है। रुद्र के दो भाग हैं। प्रथम भाग का नाम है चमक और दूसरे भाग का नाम है नमक। चमक में शंकर भगवान की स्तुति है और नमक में भक्तों ने अपनी इच्छाएं व्यक्त की है। कैलासाधिपति की प्रलयंकारी शक्ति का अनुभव लेते हैं इसी प्रभावशाली मंत्र के माध्यम से।
ओम ओम शांति शांति शांति। ओम नमस्ते रुद्रमन्यव उतो तैषवे नमः। नमस्ते अस्तु धन्वने बाहुभ्यामुदते नमः। यातैषु शिवतमा शिवं बभूवते धनुः। शिवाशरव्या यातवचया नो रुद्रमृडया। या ते रुद्रशिवा तनूरघोरापापकाशिनी। अयानस्तनुवाशन्दमया गिरिशन्दाभिधाविषीः। या मिथुम् गिरिशन्दहस्ते बिभर्षस्तवे। शिवाङ्गिरित्रताम् कुरु मायिगासि पुरुषम् जगत्। शिवेन वचसा त्वा गिरिशाच्छावदामसि। यथा नः सर्वमित्यगतयक्ष्मगसुमनासत। अद्य वोचदधिवक्ता प्रथमो दैव्योऽभिषव। अहीग्रश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः। असव्यताम्रो अरुण उत भगृः सुमङ्गलः। ये ते मा गरुद्रा अभितो दिक्षुश्रिता सहस्रशो वैशाग्रहेणैमहे। असव्यो वसरपतिनीलग्रीवो विलोहितः। उतैनम् गोपा अदृशन्नदृशन्नदहार्यः। उतैनम् विश्वा भूतानि सदृष्टो मृळयादिनः। नमो अस्तु नीलग्रीवाय सहस्राक्षाय भीरुषे। अथो ये अस्य सद्वानो हन्तेभ्यो करन्नमः। प्रमुञ्च धन्वनस्वमुभयोराज्ञयोर्जाम्। याश्च देहस्तयुषव पराता भगवो वप। अवतद्यधनुस्त्वगसहस्राक्षशतेषु ते। निशीर्यशल्यानाम् मुखा शिवो नः सुमना भव। विद्यन्दनोक्कपरदिनो विशल्यो बाणवाङ्गभुता। अहेषन्नस्येषव आभुरस्य निषङ्गतिः। या ते हेतिर्मीडुष्टमास्ते बभूवते धनुः। तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा। नमस्ते अस्त्वायुधाया नाथदाय धृष्णवे। उभाभ्यामुतते नमो बाहुभ्यान्तवदन्वने। परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः। अथो यरिषुधिस्तवारे अस्मन्निधेहिताम्। नमो हिरण्यवाहवे सेनान्ये दिशाम् च पतये। नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये। नमो नमः सस्पिञ्जरायद्विषीमते पथीनाम् पतये। नमो नमो बब्धुषाय विव्याधिनेन्नानाम् पतये। नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये। नमो नमो भवस्य हेत्यै जगताम् पतये। नमो नमो रुद्राय तथा विने क्षेत्राणां पतये नमो नमः सूतायाहन्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृताय औषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्कीनां पतये नमो नमः कृष्णवीताय धावते सत्वनां पतये नमः नमः सहमानाय निव्याधिनाव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे सेनानां पतये नमो नमो निषङ्गिणयिषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूना पतये नमो नमो निषेरवे परिचरायारण्यानां पतये नमो नम सृकादिभ्यो जिहागोसद्भ्यो मुष्णतां पतये नमो नमो सिमद्भ्यो नक्तञ्जरद्भ्यः प्रकृन्दानां पतये नमो नम उष्णीषिणे गिरिशराय पुलुञ्जानां पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्चो नमो नम आधन्वानेभ्यः प्रतिदधानेभ्यश्चो नमो नम आयच्छद्भ्यो विसृज ो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्चो नमो नम आसीने भ्यश्चयानेभ्यश्चो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्चो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्चो नमो नमस्तभाभ्यस्तवावदिभ्यश्चो नमो नमो अश्वेभ्योऽश्वपदिभ्यश्चो नमः नम आव्याधीभ्यो विविध्यन्तीभ्यष्टवो नमो नम उगणाभ्यस्तृमहतीभ्यष्टवो नमो नमो कृत्सेभ्यो कृत्सपतिभ्यष्टवो नमो नमो व्रातेभ्यो व्रातपतिभ्यष्टवो नमो नमो गणेभ्यो गणपतिभ्यष्टवो नमो नमो विरूपेभ्यो विश्वरूपेभ्यष्टवो नमो नमो महद्भ्यः कुल्लकेभ्यश्चो नमो नमो रथिभ्यो रथेभ्यश्चो नमो नमो रथेभ्यो रथपतिभ्यश्चो नमो नमः सेनानिभ्यश्चो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्चो नमो नमस्तक्षभ्यो रथकारे भ्यश्चो नमो नमः कुलारेभ्यः कर्मारेभ्यश्चो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्चो नमो नमः ऋषुकृद्भ्यो धन्वकृद्भ्यश्चो नमो नमो मृगयुभ्यश्वनेभ्यश्चो नमो नमश्वभ्यश्वपदेभ्यश्चो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपालदिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो विदिशाय च जिपिविष्टाय च नमो वीरुष्टमाय केशुमते च नमो ह्रस्वाय च वामनाय च नमो कृहते च वर्षीयसे च नमो वृद्धाय च समृद्ध नमो अग्रियाय च प्रथमाय च नम आशवे चाजिराय च नम श्रीभ्रियाय च श्रीभ्याय च नम ऊर्म्याय चावस्वन्याय च नम स्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो शरण्याय च बुद्धियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च कल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः शराय च प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नम शूराय चावभिन्दते च नमो वर्णिने च वरुणिने च नमो बिल्मिने च कवचिने च नम श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चान्याय ब्रह्मण्याय च नमो जुष्णवे च प्रमृताय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णे च वेजायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः स्मूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय चावट्याय च नमो वर्षाय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नम इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिव तराय च नमस्तेभ्याय च पूज्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आचार्याय च लाद्याय च नमः षष्ट्याय च भेन्याय च नमः श्रीपत्याय च प्रवाह्याय च नम इन्याय च प्रपद्याय च नमः पिवशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो ओष्ठ्याय च विद्याय च नमस्तर्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेष्ट्याय च नमः पागसव्याय च रजस्याय च नमः शुष्याय च हरित्याय च नमो ोप्याय च नप्याय च नमः पूर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो मपुरमाणाय च विघ्नते च नमः अखिलते च प्रखिलते च नमो वक्रिकेभ्यो देवानाभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः आनिरहतेभ्यो नमः आमीवत्केभ्यः द्रापे अन्तस्पदे दरिद्रन्नीलोहिता एषाम् पुरुषाणामेषाम् पशूनाम् माभेर्मा रोमो येषाम् किञ्च नाममत या ते रुद्रशिवातनो शिवा विश्वाभेषजी शिवा रुद्रस्य भेषजीतया नो मृडजीवते इमा गरुद्राय तमसे कपर्दिने क्षयद्वीराय प्रवरामहे मतिम् यथा नश्यमसद्विपदे च दुष्पदे विश्वम् पुष्टङ्गामे अस्मिन्ननातुराम् मृडानो रुद्रोतनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्छञ्चयोश्च मनुराय के पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मानवुक्षन्तमुतमानवुक्षिताम् मानो वदीर्पितरम् मोतमातरम् प्रिया मानस्तनुवो रुद्ररीरिषः मानस्लोकेतनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामितो वधीरहविष्मन्तो नमसा विधेमते आराते गोम्न उत पूरुषमे क्षयद्वीराय तुम् नमस्मे ते अस्तु रक्षातनो अधिजदेव ब्रूयरातनशरम यच्छद्विवर्हाः स्तुहि श्रुतम् गरत संयुवानम् मृगन्न भीममुपात्मुग्राम् मृडाय रित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव बन्धु सेनाः परिणो रुद्रस्य हेतिरवृणक्तु परिद्वेषस्य दुर्मतिरधायोः अवस्थिरामरोध्यस्तनुष्वीर्वस्थोकायतनयाय मृडया नीरुष्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधम निधाय वृत्तिम वधा न आचर विना बिभ्रदा गही विकीर्त विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रवाहेतयोऽन्यास्मन्निवपन्दुलाः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुभागृहि सहस्राणि सहस्रशो ये रुद्राधिभूम्याम् सहस्रयोजने वधन्वानि तन्मसि अस्मिन्महत्यर्णवेऽन्तरिक्षे भवाधि नीलग्रीवाश्युतिकण्ठाश्चर्वाधाश्रमाचराः नीलग्रीवाश्युतिकण्ठादिवरुद्रा उपश्रिताः ये वृक्षेषु सत्पिञ्जः नीलग्रीवा विरोहिताः ये भूतानामधिपतयो विशिखासः कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विवतो जनान ये पथाम् पथिरक्षय ऐलभृदाय व्युधः ये तीर्थानि प्रचरन्ति श्रुतावन्तो निषङ्गिणः य एतावन्तश्च भूयागोसश्च दिशो रुद्राविदस्थिरे तेषागोसहस्रयोजने वदन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्यायेऽन्तरिक्षे ये दिव्ये कामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृणयन्तु देयम् विष्णो यश्च नो वेष्टितम् भोजम् भेदामि ॐ अधुना विष्णु सजोषसे मा वर्धन्तु वाङ्गिरः युग्मैर्वाजे विरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुमश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुष्ठ मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे चक्षश्च मे बलम् च ममोजश्च मे सहश्च मायुश्च मे जरा च आत्मा च मे तनु ष्ट मे चर्म च मे वर्म च मे नानि च मे स्थानि च मे परोमाणि च मे शरीराणि च मे यैष्ठ्यम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मे मष्टमेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे त्राहुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे कृषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुखम् च मे सुपथम् च मरुद्धम् च मरुद्धिष्ट मे क्लुप्तम् च मे क्लुप्तिष्ट मे मतिष्ठ मे सुमतिष्ठ मे ञ्च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे त्वरश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञातरम् च मे सोष्ठ मे प्रसोष्ठ मे शीलम् च मे यश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयश्च मे जीवाविष्ट मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे सुखा च मे सुनम् च मे ऊर्जमे सूनुता च मे पयष्टमे रसष्टमे धृतं च मे मधुटमे प्रकृष्टमे सभीदिष्टमे कृष्टमे वृष्टिष्टमे दरीष्टं च मौद्भिद्यं च मे रयिष्टमे रायष्टमे पुष्टं च मे पुष्टिष्टमे विभुचमे प्रभुचमे बहुचमे भूयष्टमे पूर्णं च मे पूर्णतरं च मे कृतिष्टमे पूयवाष्टमेन्नं च मे पृच्छमे वीहयष्टमे यवाष्टमे माषाष्टमे तिलाष्टमे मुद्गाष्टमे खल्वाष्टमे बोधूमाष्टमे मसुराष्टमे प्रियङ्गवष्टमे नवष्टमे श्यामाकाष्टमे नीवाराष्टमे अश्माचमे मृत्तिकाचमे गिरयष्टमे पर्वताष्टमे शिखदाष्टमे वनस्पतयष्टमे हिरण्यञ्चमे यष्टमे सीसञ्चमे चित्रपुष्टमे श्यामञ्चमे लोहञ्चमे विनिश्चमावष्टमे वीरुदष्टमोषधयष्टमे कृष्णपञ्चमे कृष्णपञ्चमे ग्राम्याष्टमे पशवारण्याष्ट यज्ञेन कल्पन्तां वित्तं च मे वित्तिष्टमे भूतं च मे भूरिष्टमे वसु च मे वसतिष्टमे कर्म च मे शक्तिष्टमे रथष्टम एवष्टम इतिष्टमे गतिष्टमे अग्निष्टम इन्द्रष्टमे सोमष्टम इन्द्रष्टमे सविता च महीन्द्रष्टमे सरस्वती च महीन्द्रष्टमे पूजा च महीन्द्रष्टमे बृहस्पतिष्टम इन्द्रष्टमे मित्रष्टम इन्द्रष्टमे वरुणष्टम इन्द्रष्टमे त्वष्टा च महीन्द्रष्टमे धाता च महीन्द्रष्टमे विष्णुष्टम इन्द्रष्टमे श्रृणौ च महीन्द्रष्टमे मरुतष्टम इन्द्रष्टमे विश्वे मे देवा इन्द्रष्टमे पृथिवी च महीन्द्रष्टमेन्दरिक्षं च महीन्द्रष्टमे द्यौश्चम इन्द्रष्टमे दिशष्टम इन्द्रष्टमे मूर्धा च महीन्द्रष्टमे प्रजापतिष्टम इन्द्रष्टमे अगशुष्टमे रश्मिष्टमे दाव्यष्टमेधिपतिष्टम उपावशुष्टमेन्दर्यामष्टम ऐन्द्रवायवष्टमे मैत्रावरुणष्टम आश्विनष्टमे प्रतिप्रस्थानष्टमे शुक्रष्टमे मन्दीजमहाग्रयणष्टमे वैश्वदेवष्टमे ध्रुवष्टमे वैश्वानरष्टम ऋतुग्रहाष्टमे त्रिग्राह्या ष्टमे वैश्वदेवष्टमे मरुत्वतीयाष्टमे माहेन्द्रष्टमादित्यष्टमे सावित्रष्टमे सारस्वतष्टमे पौष्णष्टमे पात्नीवतष्टमे हारियोजनष्टमे इदमष्टमे परिष्टमे वेदिष्टमे जिष्ठियाष्टमे सृषष्टमे चमसाष्टमे गावाणष्टमे स्वरवष्टम उपरवाष्टमे दिशवणे चमे द्रोणकलषष्टमे वायव्यानि च मे पूतभृष्टम आदवनीयष्टम आग्नेर्घ्रं च मे हविर्धानं च मे गृहाष्टमे सदष्टमे ोडाकाष्टमे पञ्चताष्टमे वभृतष्टमे स्वराकारष्टमे अग्निष्टमे घर्मष्टमे रक्तष्टमे सूर्यष्टमे प्राणष्टमे श्वमेधष्टमे पृथिवी च मे धिष्टमे दितिष्टमे द्यवोष्टमे शक्वरीरङ्गुलयोदिषष्टमे यज्ञेन कल्पन्तामृत्यमे सामचमे स्तोमष्टमे यजुष्टमे दीक्षा च मे तमष्टमनुतुष्टमे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्रतन्त्रये च मे यज्ञेन कल्पेताम् गर्भाष्टमे वत्साष्टमे ష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్టమేష్ట यज्ञेन कल्पता ज्ञानो यज्ञेन कल्पता चक्षुर्यज्ञेन कल्पता श्रोत्रं यज्ञेन कल्पता मनो यज्ञेन कल्पता वाग् यज्ञेन कल्पता महात्मा यज्ञेन कल्पता यज्ञो यज्ञेन कल्पता एकादशमे तिस्रष्टमे पञ्चदशमे सप्तदशमे नवदशमे एकादशमे त्रयोदशमे पञ्चदशमे सप्तदशमे नवदशमे एकविंशतिष्टमे त्रयोविंशतिष्टमे पञ्चविंशतिष्टमे सप्तविंशतिष्टमे नवविंशतिष्टमे एकत्रिंशतिष्टमे त्रयस्त्रिंशतिष्टमे चतुस्रष्टमे अष्टौशमे द्वादशतमे षोडशतमे विंशतिष्टमे चतुर्विंशतिष्टमे अष्टाविंशतिष्टमे द्वात्रिंशतमे षट्त्रिंशतमे चत्वारिंशतमे चतुश्चत्वारिंशतमे अष्टाचत्वारिंशतमे वाजश्च प्रथमश्चापिश्च क्रतुश्च सुवश्च मूढा च व्यश्नियष्टाध्यायनश्च ष्ट भुवनश्च भुवनश्चाधिपतिष्ठा ॐ इडादेवहोर्मनुर्यज्ञनीर्बृहस्पतिरुक्ता मदानि सगषद्विश्वे देवा सोक्तवाच पृथिवीमातरमायमधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवनिष्यामि मधुमदीन् देवेभ्यो वाचमुद्यासगशुश्रूषेण्याहम् मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरोऽनुवदन्तु ॐ शान्तिः शान्तिः शान्तिः।